ॐ भद्रं कन्ने विश्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः स्तुष्टुवागुंसस्तनोभिः यशेम देवहितञ्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः।
हे देव, अमे कांति शुभ सांवलिए, अमे यजन अर्थात हवन करता पोतानी आँखों थी शुभ जोइए, अमे स्वस्थ शरीर द्वारा तमारी आराधना करिए, अमे जीवन पर्यंत देव हितनूज आचरण करिए, कीर्तिमान इंद्र अमारू कल्याण करो, सर्वत्र प्रकाशित सूर्य अमारू भलू करो, दुष्टता ने दूर करनार गरुड़ अमारू हित करो, बृहस्पति अमारू कल्याण करो, शरीर मन अने आत्मा शांत थाओ।
ओम नमस्ते गणपतये, त्वमेव प्रत्यक्षं तत्त्वमसि, त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, ऋतं वच्मि, सत्यं वच्मि।
ओम श्री गणपति ने नमस्कार हो। तमेज प्रत्यक्ष ब्रह्म तत्व छो, तमेज आ जगतना एकमात्र कर्ता छो, तमे एकज तेना धरता अर्थात तेने टकावी राखनार छो, तमेज तेना हरता अर्थात विनाश करनार छो। आ सगणु ब्रह्म अर्थात जगत पण खरेखर तमेज छो, तमेज साक्षात नित्य आत्मा परमात्मा छो।
अवत्वं माम् अवभक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधरात्तात् सर्वतो मां पाहि पाहि समन्तात्।
हूँ सत्य कहू छू, हूँ सत्यज कहू छू, आप मारु रक्षण करो, आपनु नाम बोलनारनु रक्षण करो, नाम सांभळनारनु रक्षण करो, नाम धारण करनारनु रक्षण करो, न बोलनारनु रक्षण करो, शिष्यनु रक्षण करो, मारी पाछळथी रक्षा करो, मारी आगळथी रक्षा करो, मारू उत्तर तरफथी रक्षण करो, मारू दक्षिण तरफथी रक्षण करो, मारू ऊपरनी बाजूथी रक्षण करो, मारू नीचे तरफथी रक्षण करो, चारे तरफ बधी बाजूथी आप मारू रक्षण करो।
त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि।
आप वाणी स्वरूप छो, चित्त स्वरूप छो, आप आनंदमय छो, आप ब्रह्म स्वरूप छो, आप सत चित आनंद स्वरूप अद्वितीय जेनी जोड़ नथी तेवा छो, आप प्रत्यक्ष ब्रह्मनु स्वरूप छो, आप ज्ञानमय तथा विज्ञानमय ज्ञानना संपूर्ण तत्व स्वरूप छो।
सर्वं जगदिदं त्वत्तो जायते, सर्वं जगदिदं तत्तस्तिष्ठति, सर्वं जगदिदं त्वयि लयमेष्यति, सर्वं जगदिदं त्वयि प्रद्येति, त्वं भूमिरापो नलो नीलो नभः, त्वं चत्वारि वाक्पदानि।
समस्त विश्व आपना थकी उत्पन्न थाय छे, आ सगणू जगत आपना वडे टके छे, तेमज आ समस्त जगत आप मां लय पामे छे, आ सगणू विश्व आपना मां पाछू समाय छे, पृथ्वी जल तेज वायु तथा आकाश आपनू ज स्वरूप छे। वाणीना चार पद अर्थात स्वरूप परमा पश्यंती मध्यमा अने वैखरी आपज छो।
त्वं गुणत्रयातीतः, त्वमवस्थात्रयातीतः, त्वं देहत्रयातीतः, त्वं कालत्रयातीतः, त्वं मूलाधारस्थितोऽसि नित्यं, त्वं शक्तित्रयात्मकः, त्वां योगिनोऽध्यायन्ति नित्यं, त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवस्तु वरो गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् अनुस्सारः परतरः अर्धेन्दुलसितं तारेण रुद्धं वेदत्तवमनुस्वरूपम्।
आप सत्व रज तम त्रणेय गुणोथी पर छो, आप बाल्य युवा वृद्ध त्रण अवस्थाओं थी पर छो, आप त्रण प्रकारना शरीर थी पर छो, भूत भविष्य वर्तमान त्रणे काल थी पर छो, आप निरंतर मूलाधार कुंडलिनी विषय निवास करो छो, त्रणे शक्ति स्वरूप आप छो, योगी पुरुषो अहर्निश आपनू ध्यान करे छे, आप ब्रह्मा छो, आप विष्णु छो, आप रुद्र छो, आप इंद्र छो, आप अग्नि छो, आप वायु छो, आप सूर्य छो, आप चंद्रमा छो, आप ब्रह्म स्वरूप भूलोक भुवरलोक અને સ્વર્ગલોક પણ આપ છો।
ગકારઃ પૂર્વરૂપમ અકારો મધ્યમરૂપમ અનુસ્વારશ્ચ અંજરૂપમ બિંદુરુત્તરરૂપમ નાદસ સંધાનમ સગુંહિતા સંધિઃ સૈષા ગણેશ વિદ્યા कणक ऋषि निजृद्गायत्री छंद श्री महागणपतिर्देवता ओं गणपत जय नम।
गण शब्द नो पहलो अक्षर ग नो पहलो उच्चार करवो, અને વર્ણોનો પ્રથમ અક્ષર અનો તેના પછી ઉચ્ચાર કરવો, તે પછી તેના ઉપર અનુસ્વારનો ઉચ્ચાર અનુનાસિક સાથે કરવો, તેને ઓમથી રુદ્ધ કરવો. આ આપના મંત્રનું સ્વરૂપ છે. તેમાં ગકાર પૂર્વરૂપ છે, અકાર મધ્યમ રૂપ છે, અનુસ્વાર છેલ્લું રૂપ છે, બિંદુ તેની ઉપરનું સ્વરૂપ છે, નાદ તેનું અનુસંધાન છે અને તેનું જોડાણ સંધિ છે.
એકદંતાય વિદ્મહે વક્રતુંડાય ધીમહિ તન્નો દંતી પ્રચોદયાત.
આ એ ગણેશ વિદ્યા છે. તેના ઋષિ ગણક નામના ઋષિ છે. નિચરુદ્ર ગાયત્રી તેનો છંદ છે. આ ગણેશ વિદ્યા મંત્રના દેવ ગણપતિ છે. ઓમ ગમ ગણપતયે નમઃ એ મંત્ર છે. એક દાંતવાળા ગણપતિને અમે સમજીએ છીએ. અમે વક્રતુંડ ગણપતિની આરાધના કરીએ છીએ. તે દંતી ગણપતિ અમારા પ્રેરણા મૂર્તિ થાઓ.
એકદંતં ચતુર્હસ્તં પાશમંકુશધારિણં રદં ચ વરદં હસ્તૈર્વિભ્રાણં મૂષકધ્વજં રક્તં લંબોદરં શોત્પકર્ણકં રક્તવાસસં રક્તગંધાનુલિપ્તાંગં રક્તપુષ્પૈઃ સુપૂજિતં ભક્તાનુકંપિનં દેવં જગત્કારણમચ્યુતં આવિર્ભૂતં ચ સૃષ્ટ્યાદૌ પ્રકૃતેઃ પુરુષાત્ પરમ એવં ધ્યાયતે યો નિત્યં સ યોગી યોગિનાં વરઃ.
એક દાંતવાળા, ચાર હાથવાળા, પાશ અને અંકુશ ધારણ કરનાર, મોદક તથા વરદાનની મુદ્રા જેઓએ ધારણ કરી છે, જેની ધજામાં મૂષક ઉંદર છે, તેવા લાલ વર્ણવાળા, વિશાળ પેટવાળા, સુપડા સમાન કાનવાળા, લાલ વસ્ત્ર ધારણ કરનારા, જેના શરીરે રક્તચંદનનો લેપ કરેલો છે, તેવા રાતા પુષ્પથી જેની પૂજા થાય છે, તેવા ભક્ત પર કૃપા કરનારા પ્રકાશમાન જગતના કારણરૂપ અવિનાશી સૃષ્ટિના આદિમાં પ્રગટેલા પુરુષ પ્રકૃતિથી પર એવા ગણપતિના સ્વરૂપનું જે યોગી પુરુષ ધ્યાન કરે છે તે યોગી પુરુષોમાં શ્રેષ્ઠ ગણાય છે.
નમો રાતપતજે, નમો ગણપતજે, નમઃ પ્રમથપતજે, નમસ્તે સ્તુલંબોદરાયકદંતાય વિઘ્નનાશિને શિવસુતાય શ્રીવરદમૂર્તજે નમઃ.
વ્રાતપતિને નમસ્કાર, ગણોના પતિને નમસ્કાર, પ્રમથના પતિને નમસ્કાર, વિશાળ પેટવાળા, એક દાંતવાળા, વિઘ્નોનો નાશ કરનારા, શંકરના પુત્ર, વરદાન આપનાર મૂર્તિ સ્વરૂપ ગણપતિને નમસ્કાર હો.
સર્વવિઘ્નૈર્ન બાધ્યતે સર્વત્ર સુખમેધતે સ પંચમહાપાપાત્ પ્રમુચ્યતે સાયમધીયાનો દિવસ કૃતં પાપં નાશયતિ રાતરધીયાનો રાત્રિ કૃતં પાપં નાશયતિ સાયં પ્રાતઃ પ્રયુંજાનો પાપો પાપો ભવતિ सर्वत्राधीजानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमथर्वशेषमशिष्यायनधेयम् यो यदि मोहारात्दास्यति स पापीयान् भवति सहस्रावर्तनाद्यम्यम् काममधीते तन्तमनेन साधयेत्।
आथर्वशीर्ष जे शीखे छे ते ब्रह्मरूप थवाने योग्य बने छे, ते बधीज रीते सुख प्राप्त करे छे, तेने कोई विघ्न नड़तर नथी, ते पांच महापाप थकी छूटी जाए छे। जे सांजे आ पाठ करे छे ते पोताना दिवसे करेला पापोनो नाश करे छे। जे सवार मा पाठ करे छे ते पोताना रात्रे करेला पापोनो नाश करे छे। सांजे अने सवारे पाठ करनार पाप रहित थाय छे। हर पळे पाठ करनार विघ्न वगरनो बने छे अने ते धर्म अर्थ काम तथा मोक्ष ए चारे पुरुषार्थ प्राप्त करे छे।
अनेन गणपतिमभिषिञ्चति स्वाग्ने भवति चतुर्थ्यामनश्नं जपति स्वविद्यावान् भवति इत्यथर्वणभाग्यम् ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति।
जे साचो शिष्य के भक्त न होए तेने आ अथर्वशीर्ष आपवू नहीं। ममता ने कारणे कदाच जो कोई एवाने आपशो तो ते पापी थशे। 1000 अथर्वशीर्षना पाठ करवाथी जे जे इच्छाओ करे ते आ पाठ थी सिद्ध थाय छे। आ पाठ वडे गणपति ने अभिषेक करे ते वाणी उपर प्रभुत्व पामी शके। चतुर्थी ने दिवसे उपवास करीने आ पाठनो जाप करे ते विद्यावान बने छे। आ प्रमाणे अथर्वण मुनिनु वचन छे ते पुरुष ब्रह्मनी मायाना आवरणों ने भेदी शके छे अने क्यारे पण डरतो नथी।
यो दोर्वाङ्कुरैर्यजति स वै श्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यसमिद्भिर्यजति ससरुवल्लभते।
जे दूर्वा वडे पूजन करे छे ते कुबेर जेवो धनवान बने छे। जे लाजा अर्थात पौआ वडे पूजे छे ते कीर्तिमान थाय छे ते बुद्धिवान थाय छे। जे 1000 लाडू वडे यजन करे छे ते प्राप्त थयेल इच्छावाळो थाय छे इच्छित फल मेळवे छे। जे घी तथा समीधा वडे पूजन करे छे ते बधूं ज पामे छे ते खरेखर बधूं ज मेळवे छे।
अष्टो ब्राह्मणां सम्यक् ग्राहयित्वा सूर्यवर्चस्वे भवति सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात्प्रमुच्यते महादोषात्प्रमुच्यते महापापात्प्रमुच्यते महाप्रत्यवायात्प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति एवं वेदा।
आठ ब्राह्मणों ने सारी रीते लखीने आपवाथी सूर्य समान तेजस्वी बने छे। सूर्यना ग्रहणना समय में त्रण मोटी नदी में गणेशनी मूर्तिनी सामे बैसीने जप करे तो ते पुरुष ने आमंत्र सिद्ध थाय छे। ते मोटा पाप थी छूटी जाय छे। ते सर्वज्ञ बने छे। जे आ ज्ञान समझे छे ते पण सर्वज्ञ बने छे।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः स्तुष्टुवागुंसस्तनोभिः यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु। ॐ शान्तिः शान्तिः शान्तिः।
हे देव, अमे कान थी शुभ सांभळीए, अमे यजन अर्थात हवन करता पोतानी आँखों थी शुभ जोईए, अमे स्वस्थ शरीर द्वारा तमारी आराधना करिए, अमे जीवन पर्यंत देव हितनुज आचरण करिए, कीर्तिमान इंद्र अमारू कल्याण करो, सर्वत्र प्रकाशित सूर्य अमारू भलूं करो, दुष्टता ने दूर करनार गरुड़ अमारू कल्याण करो, बृहस्पति अमारू कल्याण करो, शरीर मन अने आत्मा शांत थाओ।